l'organizzazione Sette Sai d'Italia presenta Radio Sai Global Harmony in lingua italiana.
Cari amici, Sairam a tutti voi e benvenuti alla puntata numero 53 di Radio Sai Italia. I Chamaka 9, 10 ed 11 concludono la nostra piccola scuola di Rudram Veda e, nella speranza che vi sia stata utile, vi auguriamo buon ascolto. Un consiglio: prestate attenzione al suono delle parole e cercate di imitarlo. Potete segnare qualche nota sul testo per aiutarvi eventualmente a ricordare quei punti in cui la pronuncia può risultare un po' difficile. Buon lavoro! Il nono Nuvaka è la preghiera più importante, composta da tutti i contenuti dei quattro Veda.
Agnishtame karmashtame,
agnishtame karmashtame,
agnishtame karmashtame,
अग्निश्चमे घर्मश्चमे
अर्कश्चमे सूर्यश्चमे
अर्कश्चमे सूर्यश्चमे
अर्कश्चमे सूर्यश्चमे
अर्कश्चमे सूर्यश्चमे
प्राणश्चमेश्वमेधश्चमे
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 प्राणश्चमेश्व मेधश्च मे
पृथिवी च मेदितिश्च मे
पृथिवी च मेदितिश्च मे
पृथिवी च मेदितिश्च मे
पृथिवी च मेदितिश्च मे
दितिश्च मे द्यौश्च मे
दितिश्च मे द्यौश्च मे
दितिश्च मे द्यौश्च मे
दितिश्च मे द्यौश्च मे
शक्वरीरङ्गुलयो दिशश्च मे
शक्वरीरङ्गुलयो दिशश्च मे
शक्वरीरङ्गुलयो दिशश्च मे
शक्वरीरङ्गुलयो दिशश्च मे
यज्ञेन कल्पन्तां ऋक्ष मे
यज्ञेन कल्पन्तां ऋक्ष मे
यज्ञेन कल्पन्तां ऋक्ष मे
यज्ञेन कल्पन्तां ऋक्ष मे
साम च मे स्तोमश्च 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 मे
यजुश्च मे दीक्षा च 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 मे
तपश्चम ऋतुश्च मे
तपश्चम ऋतुश्च मे
तपश्चम ऋतुश्च मे
तपश्चम ऋतुश्च मे
व्रतं च मे
व्रतं च मे
व्रतं च मे
व्रतं च मे
अहोरात्रयोर्वृष्ट्या
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 बृहद्रथन्तरे च मे
बृहद्रथन्तरे च मे
बृहद्रथन्तरे च मे
बृहद्रथन्तरे च मे
यज्ञेन कल्पेताम्
यज्ञेन कल्पेताम्
यज्ञेन कल्पेताम्
यज्ञेन कल्पेताम्
Ora riascoltiamo questo chamaka eseguito dai bramini, cercando di seguirlo insieme a loro.
Agnishtame dharmashtame arkashtame suryashtame pranashtame svamedhashtame prithivichame ditishtame ditishtame yoshtame shakvare angula yodishashtame yajjena kalpantamrikkame samachame stomashtame yajushtame dikshatame tapashtame rudushtame मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम्
Nel decimo Nuvaka si invocano tutte le specie biologiche a cooperare per la nostra salute quotidiana ed anche per il fuoco sacrificale. È anche connesso alle più alte elevazioni spirituali.
Garbhashtame vatsashtame
Garbhashtame vatsashtame
Garbhashtame vatsashtame
Garbhashtame vatsashtame
Trivishtame trivichame
Trivishtame trivichame
Trivishtame trivichame
Trivishtame trivichame
Dityavachame dityauhi chame
Dityavachame dityauhi chame
Dityavachame dityauhi chame
Dityavachame dityauhi chame
Panchavishtame panchavichame
Panchavishtame panchavichame
Panchavishtame panchavichame
Panchavishtame panchavichame
Trivatsashtame trivatsachame
Trivatsashtame trivatsachame
Trivatsashtame trivatsachame
Trivatsashtame trivatsachame
Turiyavachame turiyauhi chame
Turiyavachame turiyauhi chame
Turiyavachame turiyauhi chame
Turiyavachame turiyauhi chame
Pashthavachame pashthauhi chama
Pashthavachame pashthauhi chama
Pashthavachame pashthauhi chama
Pashthavachame pashthauhi chama
Ukshachame vashachama
Ukshachame vashachama
Ukshachame vashachama
Ukshachame vashachama
Rishabhashchame vehachame
Rishabhashchame vehachame
Rishabhashchame vehachame
Rishabhashchame vehachame
Anadvanchame dhenushchama
Anadvanchame dhenushchama
Anadvanchame dhenushchama
Anadvanchame dhenushchama
Ayuryajnena kalpatam
Ayuryajnena kalpatam
Ayuryajnena kalpatam
Ayuryajnena kalpatam
Pranoyajnena kalpatam
Pranoyajnena kalpatam
Pranoyajnena kalpatam
Pranoyajnena kalpatam
Apanoyajnena kalpatam
Apanoyajnena kalpatam
Apanoyajnena kalpatam
Apanoyajnena kalpatam
Vyanoyajnena kalpatam
Vyanoyajnena kalpatam
Vyanoyajnena kalpatam
Vyanoyajnena kalpatam
Chakshuryajnena kalpatagum
Chakshuryajnena kalpatagum
Chakshuryajnena kalpatagum
Chakshuryajnena kalpatagum
Shrotram yajnena kalpatam
Shrotram yajnena kalpatam
Shrotram yajnena kalpatam
Shrotram yajnena kalpatam
Mano yajnena kalpatam
Mano yajnena kalpatam
Mano yajnena kalpatam
Mano yajnena kalpatam
Vāyajñena kalpatā mahātmā
Vāyajñena kalpatā mahātmā
Vāyajñena kalpatā mahātmā
Vāyajñena kalpatā mahātmā
Yajñena kalpatā
Yajñena kalpatā
Yajñena kalpatā
Yajñena kalpatā
Yajñena kalpatā
Yajñena kalpatā यज्ञो यज्ञेन कल्पताम्
यज्ञो यज्ञेन कल्पताम्।
Riascoltiamo il Chamakà eseguito dai bramini e cerchiamo di seguirlo insieme a loro.
Radbhastame vatsastame triavistame triavijame dittavartame dittaugetame pancavistame pancavijame trivatsastame trivatsajame duryavartame duryaugetame pashthavacame pashthaugetama ukshajame vashajama rishabhastame vehat चमे दट्वान्तमे धेनुश्चम आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गश्रोत्रैयज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम्।
L'undicesimo Anuvaka è una lunga lista di benedizioni chieste con il linguaggio in codice dei divini numeri dispari e degli umani numeri pari.
Ekacame tisrascame
ekacame tisrascame
ekacame tisrascame
ekacame tisrascame
panchacame saptacame
panchacame saptacame
panchacame saptacame
panchacame saptacame
navacama ekadashacame
navacama ekadashacame
नवचम एकादश च मे
नवचम एकादश च मे
त्रयोदश च मे पञ्चदश 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 च मे
सप्तदश च मे नवदश च म
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 एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे
एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे
एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे
एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे
पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे
पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे
पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे
पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे
नवद्विगुंशतिश्च म एकत्रिगुंशच्च मे
नवविगुंशतिश्च म एकत्रिगुंशच्च मे
नवद्विगुंशतिश्च म एकत्रिगुंशच्च मे
नवविगुंशतिश्च म एकत्रिगुंशच्च मे
त्रयस्त्रिगुंशच्च मे
त्रयस्त्रिगुंशच्च मे
त्रयस्त्रिगुंशच्च मे
त्रयस्त्रिगुंशच्च मे
चतस्रश्च मे
चतस्रश्च मे
चतस्रश्च मे
चतस्रश्च मे
अष्टौ च मे
अष्टौ च मे
अष्टौ च मे
अष्टौ च मे
द्वादश च मे षोडश 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 च मे
विगुंशतिश्च मे
विगुंशतिश्च मे
विगुंशतिश्च मे
विगुंशतिश्च मे
चतुर्विगुंशतिश्च मे
चतुर्विगुंशतिश्च मे
चतुर्विगुंशतिश्च मे
चतुर्विगुं
विंशतिश्च मे
अष्टाविंशतिश्च मे
अष्टाविंशतिश्च मे
अष्टाविंशतिश्च मे
अष्टाविंशतिश्च मे
द्वात्रिंशच्च मे
द्वात्रिंशच्च मे
द्वात्रिंशच्च मे
द्वात्रिंशच्च मे
षट्त्रिंशच्च मे
षट्त्रिंशच्च मे
षट्त्रिंशच्च मे
षट्त्रिंशच्च मे
चत्वारिंशच्च मे
चत्वारिंशच्च मे
चत्वारिंशच्च मे
चत्वारिंशच्च मे
चतुश्चत्वारिंशच्च मे
चतुश्चत्वारिंशच्च मे
चतुश्चत्वारिंशच्च मे
चतुश्चत्वारिंशच्च मे
अष्टाचत्वारिंशच्च मे
अष्टाचत्वारिंशच्च मे
अष्टाचत्वारिंशच्च मे
अष्टाचत्वारिंशच्च मे
वाजश्च प्रसवश्च
वाजश्च प्रसवश्च
वाजश्च प्रसवश्च
वाजश्च प्रसवश्च
अपिजश्च क्रतुश्च
अपिजश्च क्रतुश्च
अपिजश्च क्रतुश्च
अपिजश्च क्रतुश्च
सुवश्च मूर्धा च
सुवश्च मूर्धा च
सुवश्च मूर्धा च
सुवश्च मूर्धा च
व्यष्णीयश्च
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 अन्त्यायनश्चान्त्यश्च
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 भौवनश्च
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 भुवनश्चाधिपतिश्च
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 ॐ इडा देवहूः
ॐ इडा देवहूः
ॐ इडा देवहूः
ॐ इडा देवहूः
मनुर्यज्ञनीः
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 बृहस्पतिरुक्थामदानि
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 शगुंसि षद्विश्वे देवाः
शगुंसि षद्विश्वे देवाः
शगुंसि षद्विश्वे देवाः
शगुंसि षद्विश्वे देवाः
सोक्तवाचः पृथिवी
सोक्तवाचः पृथिवी
सोक्तवाचः पृथिवी
सोक्तवाचः पृथिवी
मातर्मामाहिगुंसेर्
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 मातर्मामाहिगुंसे
मधुमनिष्ये मधुजनिष्ये
मधुमनिष्ये मधुजनिष्ये
मधुमनिष्ये मधुजनिष्ये
मधुमनिष्ये मधुजनिष्ये
मधुवक्ष्यामि मधुवदिष्यामि
मधुवक्ष्यामि मधुवदिष्यामि
मधुवक्ष्यामि मधुवदिष्यामि
मधुवक्ष्यामि मधुवदिष्यामि
मधुमतीं देवेभ्यो
मधुमतीं देवेभ्यो
मधुमतीं देवेभ्यो
मधुमतीं देवेभ्यो
वाचमुद्यासकम्
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 शुश्रूषेण्याम्
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 शुश्रूषेण्या
मनुष्येभ्यस्तं मा देवा
मनुष्येभ्यस्तं मा देवा
मनुष्येभ्यस्तं मा देवा
मनुष्येभ्यस्तं मा देवा
अवन्तो
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 शोभायै पितरो नु मदन्तो
शोभायै पितरो नु मदन्तो
शोभायै पितरो नु मदन्तो
शोभायै पितरो नु मदन्तो
ॐ शान्ति शान्ति शान्तिः
ॐ शान्ति शान्ति शान्तिः
ॐ शान्ति शान्ति शान्तिः
ॐ शान्ति शान्ति शान्तिः.
Ora riascoltiamo questo chamaka eseguito dai bramini, cercando di seguirlo insieme a loro.
Eka ca me tisrashta me pancha ca me sapta ca me nava ca ma eka dasha ca me trayo dasha ca me pancha dasha ca me sapta dasha ca me nava dasha ca ma eka vikum shatishta me trayo vikum shatishta me pancha vikum shatishta me sapta vikum shatishta me nava vikum shatishta ma eka trikum shatcha me त्रयस्त्रिगुं षट् मे चतस्रश्च मेष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेष्टाविगुंशतिश्च मे द्वात्रिगुं षट् मे षट्त्रिगुं षट् मे चत्वाधिगुं षट् मे चतुश्चत्वारिगुं षट् मेष्टा चत्वारिगुं षट् मे वाजश्च प्रसवश्चाभिजश्च क्रतुश्च सुवश्च मोर्धाजव्यश्चयश्चाञ्चाजनश्चाञ्चश्च भुवनश्च भुवनश्चाधिपतिश्च. ॐ विडाते भगोर्मनुर्यज्ञनेर्बृहस्पतिरुक्था पदानि सगुंशिषद्विश्वे देवाः सोक्तवाचः पृथिवीमातं मामाहि पुंसेर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतेन्देवेभ्यो वाचमुद्यातगुं शुश्रोषे मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरो नुमदन्तु. ॐ शान्तिश्चान्तिश्चान्तिः.
Love is my fault, food is my breath, this is my food.
Radio Sai vi ringrazia per il cortese ascolto e se vorrete darci un consiglio per migliorare la trasmissione potrete scrivere a radiosai@satyasai.it. Satya con THY. J Sai Ram.